अभित्यं भेषं परहोत ब्रह्मजमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् यस्यद्यावो न विचरन्ति मानुषा भुजे मम् हिष्ठमभिविप्रमर्चत अभीमवन्वन् स्वभिष्टिभूतयोऽन्तरिक्षप्रान्तविषेभिराव्रतम् इन्द्रम् दक्षा सर्भवो मदच्युतम् शतक्रतुञ्जवनीशोनृतारुहत् त्वम् गोत्रमङ्गिरोभ्यो वृणोरपोतात्रये शततुरेषु गातुभित् ससेन चिद्विमदाया बहोमस्वाजावद्रिम् वामसानस्य नर्तयन् त्वमपामपि धाना वृणोरबाधा रजः पर्वते दानुमद्वसु व्रत्रयदिन्द्रशभसावधीरहिमादित्सूर्यम् दिव्यारोहयो दृशे त्वम् माजाभिरपमाजिनोधमस्वधाभिर्ये अधिषप्तावजह्वता त्वम् विप्रोरन्रमणः प्रारुजः पुरः प्ररजिष्वानन्दस्य हत्येष्वामिथा त्वम् कुत्सम् शष्णहत्येष्वाभिथारन्धयोतिधिग्वाजशम्बरम् महान्तम् चिदर्बुदन्निक्रमीः पदासना देवदस्य हत्याजग्निषे द्वे विश्वातविषे सद्रघ्यता तव राधः सोमपीथाजहर्षते तव वज्रश्चिगिते बाह्वोर्हितो वृश्चा शत्रोरपविश्वा निवृष्ण्या विजानेह्यार्यान्ये च तस्य वो बर्हिष्मदेरन्धजा शासदौ व्रतान् शाकी भवयजमानस्य चोदिता विश्वेत्ताते सधमादेषु चाकन अनोरताय रन्धयन्नपौरता नाभोभिरिन्द्रश्नथयन्दना भुवः वृद्धस्य चिद्वर्धतोद्यामि नक्षतस्तवा नोभम्र विजघान सन्दिहाः तक्षद्यत्त उशना सहसा सहो विरोदसी मज्मना बाधते शवाः आत्वा बाधस्य रमणो मनोजुज आपूर्यमाणमवहन्नभिश्रवाः मन्दिष्टय दुशने काव्ये स चाम् इन्द्रो वङ्को वङ्कुतराधितिष्ठति उग्रजयन्निरपस्रोतसा सृजद्विशुष्टस्य द्रंहिता ऐरजत्पुराः आस्मारथम् वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृताजेषु मन्दसे इन्द्रयथा सुतसो मेषु चाकनो नर्वाणम् श्लोकमारोहसे दिवि अददा अर्भाम् महदेव तस्य वे कक्षेवते व्रचयामिन्द्रसुन्भते मेना भवो वृषणश्वस्य सुक्रतो विश्वेत्ताते सवनेषु प्रवाच्या इन्द्र अश्राज शुद्ध्यो निरेके पज्रेशुस्तमो दुर्यो नयोपाः अश्वजुर्गव्योरथजुर्वसोजुरिन्द्र इद्राजः क्षयति प्रजन्ता idam namo vrishabhaya svaraje satya shushpaya tamase vachi asmin indra vrajane sarva virasmat surbhista basharman syama